एकदा रात्रौ सिद्धार्थो भार्यां पुत्रं प्रासादं चात्यजत् सोऽश्वमारोहद् वनं चागच्छत् वने सोऽश्वमप्यत्यजत् स केशानकृन्तन् नद्यां चाक्षिपत् स सर्वाणि भूषणान्यप्यनलेक्षिपत् सोऽवदत् अधुनाहं मुनिर्भवेयमिति ततः स सत्यस्य दर्शनाय ग्रामाद् ग्रामं वनाद् वनं देशाद् देशमभ्राम्यत् स यं यं मुनिमपश्यत् तं तं सोऽपृच्छत् स यद्यत् पुस्तकमलभत तत्तत् पुस्तकं सोऽपठत् तथापि स सत्यन्नाबोधत् एकदा सोऽचिन्तयत् यद्यहमन्नं न भक्षयेयं जलमपि न पिबेयं तर्ह्यहं सत्यं पश्येयमिति ततः सोऽन्नं जलं चात्यजत् स वृक्षस्याधोऽसीदत् किन्तु स सत्यन्नाबोधत् सोमन्यत यद्यहमन्नं जलं च त्यजेयमहं मरणमेव लभेय न सत्यम् ततो ध्यानेनैवाहं मुनिर्भवेयमिति ततोऽनन्तरं स यदा वृक्षस्याधो ध्यानायासीदत् तदा स सत्यमबोधत् तदा स बुद्धोऽभवत् स सर्वेषां जनानां गुरुरभवत् जना बुद्धमपृच्छन् हे गुरो नमस्ते अस्मभ्यं सत्यं कथय कथं वयं दुःखं त्यजेमेति बुद्धस्तानभाषत हे जनाः इच्छा दुःखस्य कारणम् यदि यूयम् इच्छां त्यजेत तर्हि युष्माकं जीवने दुःखं नैव जायेत ये सुखमिच्छन्ति त एव दुःखं विन्दन्ति ये सुखं नेच्छन्ति त एव सुखं लभन्ते इति जना बुद्धमनमन् ते तं कुसुमैरपूजयन् तस्य वचनानि च पुस्तकेष्वलिखन् तानि च पुस्तकान्यपूजयन् किन्तु जना इच्छां न कदाप्यत्यजन् ततस्तेषां दुःखमद्यापि न शाम्यति